अजम् कृत्नुरग्रे भीतो विश्वजिजुर्भिदित् सोमाः दृढिर्विप्रः काव्येन अभ्योर्नो धियन्नग्नम् भिडग्धि विश्वम् यत्पुरम् ते मन्दक्षिन्निःश्रोणोऽभूत् त्वम् सोमदनो गृध्योद्वेषोऽभ्योऽन्यकृतेभ्यः पुरुयन्तासिवरोसम् त्वञ्चित्तीतपदक्षैर्दिव आपृथिव्यारेजीषिन् यावीरगस्य चिद्वेषाः अर्चिनोयन्ति चेदर्थम् गच्छामि जदुषो रातिम् ऋजस्तृष्यतः कामम् इदजपूर्यम् नष्टमुदीवृतायुमीरयत् प्रेमायुस्तारीतदीर्णम् सुसेवो नो मृणया गुरदृक्तक्रतुरपादः भवानः सोमसंहृदे मानः सोमसंवीभिजो माविलीभिषसाराजन् मानोहार्दिक्विषावधीः अभयस्वे सदस्थे देवानाम् दुर्मतीरीक्षे राजन्न पद्मिषस्य धमेढ्वो अपसृधस्य धा